एस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्रिणा शेरबहादुर देउवाभिदेन सह चीनदेशीय कम्युनिष्ट पार्टी इति दलस्य विदेश विभाग प्रमुख लिउ जियनचाओ ह्य शिष्टाचार मेलवार्ताम् व्यदधात् बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे सम्पन्ने मेलने अनयोर्मध्ये पारस्परिक हितस्य विविध विषयेषु विमृष्टमिति प्रधानमन्त्रिणः सचिवालयो ज्ञापयति। विदेश विभाग प्रमुख लिउ चतुर्दिवसीयाय नेपाल भ्रमणाय ह्य काष्ठमण्डपम् आगतो वर्तते। विभाग प्रमुखस्य रूपेण नियुक्तेः अनन्तरं लिउ इत्यस्य एतत् प्रथमं नेपाल भ्रमणं वर्तते। एतस्य राष्ट्रपतिना विद्यादेवी भण्डारिणा, नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना, नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च सहितैः नेतृभिः सह विमर्शनस्य कार्यक्रमो वर्तते। प्रधानमन्त्री शेरबहादुर देउवा वदति भाषा साहित्य संस्कृति नाटक प्रवृत्तिविदाः राष्ट्रस्य आभूषणानि सन्ति। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयेन ह्यो नेपाल प्रज्ञा प्रतिष्ठाने आयोजितं पुरस्कार वितरण समारोहं सम्बोधयन् प्रधानमन्त्री देउवा अवासत राष्ट्रस्य समृद्धानां भाषा संस्कृति सभ्यतानां माध्यमेन देशं परिचाययितुं साफल्यं मिलति। प्रधानमन्त्री देउवा स्रष्टृणां साधकानां च सम्मानेन एतेषां कार्याणां योगदान नवीन सन्ततिम् सृजनात्मक कार्येषु प्रोत्साहयितुं साहाय्यं मिलतीति विश्वासम् अभिव्यनक। प्रधानमन्त्री देउवा सर्वकारेण प्रदीयमानैः विभिन्नैः राष्ट्रियैः क्षेत्रीयैश्च प्रतिभा पुरस्कारैः पुरस्कृतेभ्यः सृष्टिभ्यः साधकेभ्यश्च राष्ट्रस्य श्रीवृद्धौ अतिरिक्त प्रेरणा मिलतु इति अकामयत। मन्त्रालयेन नवानां विदानां पुरस्काराः त्रिचत्वारिंशते सृष्टिभ्यः प्रदत्ताः सन्ति। नेपाली कांग्रेस दलस्य पदाधिकारीणाम् उपवेशेन भारतीय शुभेच्छुक संस्थानां विधानाय अन्तिम रूपं प्रदानपूर्वकं स्वीकृति प्रदाय अद्य प्रारभ्यमाणे केन्द्रीय समितेः उपवेशे विधानमेतत् प्रस्तोतुं निर्णीतं वर्तते। सानेपावर्तिनी दल केन्द्रीय कार्यालये उपसभापतेः पूर्णबहादुर खड्गाविदस्य सभापतित्वे ह्य उपविष्टेन उपवेशेन आदिवासी जनजाति महासंघाय थारू संघाय भातृसंस्थायाः मान्यतां दत्त्वा विधानम् अन्तिमरूपं प्रदाय स्वीकृतमस्ति। एवमेव शुभेच्छुक संस्थानां रूपेण नेपाल लोकतान्त्रिक क्रीडा संघाय, नेपाल लोकतान्त्रिक निर्माण व्यवसायी संघाय, नेपाल लोकतान्त्रिक यातायात व्यवसायी संघाय, नेपाल लोकतान्त्रिक उद्योग वाणिज्य संघाय, नेपाल लोकतान्त्रिक पर्यटन व्यवसायी संघाय, नेपाल लोकतान्त्रिक संस्थागत नैज विद्यालय संघाय च मान्यतां प्रदातुं उपवेशेन निर्णीतमिति दलस्य मुख्य सचिवः राष्ट्रिय सभाया सांसदश्च कृष्णप्रसाद पौडेलः अज्ञापयत। कार्यव्यस्ततायाः कारणेन दलसभापतिः प्रधानमन्त्री च शेरबहादुर देउवा ह्यस्तनोपवेशे सहभागी नाभूत् इत्यतः उपवेशमनु निर्णयस्य विषये ज्ञापिताश्च अस्तीति सन्तीति मुख्य सचिवः पौडेलः अबोधयत। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः अद्य सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये उपविश्यमानो स्थिति ज्ञापितं वर्तते। नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः संघ प्रदेशानाम् आगामिनि निर्वाचने गठबन्धनस्य निर्भरतायाः अपेक्षयापि शक्तिम् समर्ज्य निर्वाचने एकाकिना एव संलग्नेन भाव्यमिति धारणाम् व्यनक्ति। कैलाली जनपदस्य धनगढ़ी स्थाने ह्य आयोजिते एकीकृत समाजवादी दलस्य कैलाली जनपद समितेः तृतीय पूर्णोपवेशे अध्यक्षो नेपालः स्वस्य दलम् स्थानीय स्तरस्य निर्वाचने राष्ट्रिय दलस्य रूपेण स्थापितम् अस्ति अतः सम्प्रति निर्णायक शक्तेः रूपेण अस्तीति अवोचत। बाजुरा जनपदस्य बुढ़ीगंगा नगरपालिकायाः प्रमुखे नेकपा एमाले दलस्य रामबहादुर बानिया सहस्र चतुष्टयम् सप्तशतम् सप्तसप्ततिम् च मतानि प्राप्य विजयी सम्वृत्तो वर्तते। एतस्य निकटतम प्रतिस्पर्धी नेपाली कांग्रेस दलस्य रंगबहादुर खाती सहस्र त्रयम् सप्तशतम् चतुश्चत्वारिंशत् च मतानि प्राप्नोत्। उपप्रमुखेऽपि नेकपा एमाले दलस्यैव माया खड्का कुंवरः चतुर्विंशति सहस्रैः सप्तशतेन सप्तविंशत्या च मतैः विजयम् अलभत। एतस्याः निकटतम प्रतिस्पर्धी नेपाली कांग्रेस दलस्य रीता शाही सहस्रत्रयम् सप्तशतम् पञ्चपञ्चाशत् च मतानि प्राप्तवती। हरिशयनी एकादशी पर्व ह्य भगवत विष्णु पूजा आराधने विधाय भक्तिभाव पूर्वक समादृतम अस्ति। ह्य मानव मात्रस्य कृते आरोग्यदायक महौषध गुणयुतम वनस्पते तुलस्या दलम समरूप्य विष्णु प्रतीकस्य रूपेण पूजितम वर्तते। राष्ट्रपतिना विद्यादेवी भण्डारिणा हरिशयन्या एकादश्या अवसरे ह्य राष्ट्रपति भवनस्य नैज निवास परिसरे पूजार्चनाभ्यां सहितं तुलसी दलं रोपितम् अस्ति। संघीय संसदः संचल्यमानाधिवेशनम् यावत् सदनद्वये समग्रतः 63 विधेयकानि विचाराधीनानि सन्ति। संघीय संसदः तृतीयाधिवेशनादेव विधेयकानि सदने अवरुद्धानि वर्तन्ते। प्रतिनिधिसभायां 47 शास्त्रीयसभायाञ्च 16 विधेयकानि विचाराधीनानि वर्तन्ते। संचल्यमाने अस्मिन् अधिवेशने सदनद्वयात् एतद् विक्रमवर्षीय विनियोजन विधेयकेन सह आयव्ययकेन सम्बद्धम् अन्यानि चेति कृत्वा समग्रतः 6 विधेयकानि कृतानि सन्ति। तेषु राष्ट्रपतिना विद्यादेवी भण्डारिणा विधेयकद्वयं प्रमाणीकृतम् अस्ति। 75/2000 विक्रमवर्षीयं लोकसेवायोगस्य विधेयकं प्रमाणीकरणस्य प्रक्रियायां वर्तते। आदिकवेः भानुभक्त आचार्यस्य 90-200 जन्म जयन्त्याः अवसरे आयोजितायां राष्ट्रियस्तरस्य सार्वजनिक कविता प्रतियोगितायां 11 जन पदानां 15 कविताः प्रचिताः सन्ति। तनौ जनपदीयया आदिकवि भानुभक्त जन्मस्थल विकास समित्या आयोजितायां राष्ट्रियस्तरस्य सार्वजनिक कविता प्रतियोगितायां वाचनाय प्राप्तानां कवितानां मध्ये इमाः कविताः प्रचिताः सन्ति। आदिकवेः आचार्यस्य जन्मजयन्त्याः अवसरे श्व आषाढस्य 28 दिवसे सार्वजनिक कविता प्रतियोगितेयं समायोक्ष्यते। प्रतियोगितायां कविता वाचनाय पर्वत मोरङ कास्की नवलपुरा अछाम रामेछाप कपिलवस्तु बारा खोटाङ पाल्पा रूपन्देही जनपदानां कवयः सहभागिनो भविष्यन्तीति उक्तं वर्तते। वन वातावरण मन्त्री प्रदीप यादवः आगामिनो मासत्रयस्य अभ्यन्तरे परिणाम मुखानि कार्याणि विधाय प्रदर्शयिष्यन्ते इति प्रतिबद्धतां व्यनक्ति। पर्सावर्तिना जनता समाजवादी दलेन वीरगंज महानगर समित्या च संयुक्त रूपेण ह्य आयोजिते कार्यक्रमे असौ स्वस्य कार्यकाले महत्वपूर्णानि कार्याणि विधास्यन्ते इत्यबोधयत्। मकवानपुर जनपदे संचालितेषु 5 शिलाखण्डोत्पादनोद्योगेषु तालबन्धनं विहितं वर्तते। लिखितरूपेण मौखिकरूपेण च भूयो भूय संसूचितं सदपि निर्धारितं राजस्वं न अर्पितम् इत्यतः यत् तालबन्धनं कृतमिति मकवानपुरगढी ग्रामपालिकया ज्ञापितमस्ति। एतैः उद्योगैः ग्रामपालिकायै 45,00,000 च रूप्यकाणि राजस्ववित्तम् अर्पणीयम् अस्ति, परम् अधुनावधि न अर्पितमित्यतः तालबन्धनं विधातव्यमवदिति ग्रामपालिकायाः उपाध्यक्ष माना कुमारी नेपाली अबोधयत्। बांके जनपदस्य नेपालगंज स्थानस्य मेरो प्लानेट वर्तिनी जलक्रीडास्थले निमज्ज्य ह्य एको बालकः मृतोऽस्ति। नेपालगंजोपमहानगरपालिकायाः 11 क्षेत्रस्य चुन्नुजसगढ इत्यस्य 14-वर्षीय पुत्र अल्तमस जसगढ़ 14 क्षेत्रस्य मेरो प्लानेट वर्तिनी जलक्रीडास्थले जलक्रीडाया क्रमे निमज्ज मृत इति प्रेरणा ज्ञापितमस्ति। घटनाम् अनुसन्धातुं मेरो प्लानेट जलक्रीडास्थलस्य 3 कर्मचारिणो निगृताः सन्तीति प्रेरणा ज्ञापितं वर्तते। दाङ जनपदे वन्यछत्राको भक्षणेन 6 रुग्णाः सन्ति। वन्यछत्राको भक्षणस्य कतिचित् समयानन्तरम् एते रुग्णाः जाताः इति दाङ जनपद प्रहरी कार्यालयस्य प्रवक्ता मुकुन्द प्रसाद रिजालः ज्ञापयत्। रुग्णानां समेषां घोराईवर्तिनी राप्ति स्वास्थ्य विज्ञान प्रतिष्ठाने उपचारः विधीयमानोऽस्तीति प्रहरिणा ज्ञापितमस्ति। जापानदेशीय प्रहरिणा पूर्व प्रधानमन्त्रिणा सिन्जो आबे इत्यस्य हत्यायां सुरक्षा त्रुटिः सम्भूतेति स्वीकृतमस्ति। निर्वाचनाभियानस्य क्रमे सम्बोधनरतावस्थायां नारानगरे आबे इत्यस्मिन् गोलिका प्रहारः विहितः आसीत्।